धनवान् भवति। यः एवं वेदा योपामायतनं वेदा आयतनवान् भवति।
मनीषी।